इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य चीनदेशस्य थियाचिन नगरे सांघाई सहकार संघटन शिखर सम्मेलनस्य पूर्ण सत्रं सम्बोधयिष्यति। विदेशसचिवः विक्रम मिसरी थियाचिन नगरे वार्ताहरान् अवदत् यत् स्वस्य भाषणे श्रीमोदी SCO इत्यस्यान्तर्गतं क्षेत्रीयसहयोगं संवर्धनाय भारतस्य दृष्टिकोणं स्थापयिष्यति। शिखरसम्मेलनस्य पूर्णसत्रं सम्बोधनानन्तरं प्रधानमन्त्री मोदी रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुतिनेन सह द्वैपाक्षिकोपवेशनं करिष्यति। पूर्वं ह्यः प्रधानमन्त्री मोदी तथा चीनदेशस्य राष्ट्रपतिः शी जिनफिंग इत्यसः च भारत चीनदेशयोः मध्ये द्वैपाक्षिकसम्बन्धानां पुनर्निर्माणे केन्द्रीकृतं विस्तृतं वार्तालापं कृतवन्तौ। श्रीमिसरीवर्यः अवदत् यत् सभायां श्रीमोदी द्वैपाक्षिकसम्बन्धानां निरन्तरं विकासाय सीमाक्षेत्रेषु शान्तेः सौहार्दस्य च महत्वम् अधोरेखितवान्।
Cross-border terrorism was mentioned by the Prime Minister as a priority. He did underline the fact this is something that impacts both India and China, and that it's important, therefore, that we extend understanding and extend support to each other as both of us combat cross-border terrorism.
राष्ट्रपति द्रौपदी मुर्मू अद्यारभ्य कर्नाटकस्य तमिलनाडु राज्यस्य च त्रिदिवसीय यात्रायां भविष्यति। अद्य राष्ट्रपतिः मैसूरनगरे अखिल भारतीय वाणी श्रवण संस्थानस्य हीरक महोत्सवे भागं ग्रहीष्यति। सा श्वः चेन्नई नगरे सिटी यूनियन बैंक इत्यस्य 20th-101st स्थापना दिवस समारोहे भागं भजिष्यति। राष्ट्रपतिः तिरुवरूरे स्थितस्य तमिलनाडु राज्यस्य केन्द्रीय विश्वविद्यालयस्य 10th दीक्षांत समारोहेपि भागं स्वीकरिष्यति। केन्द्रीयः गृहमन्त्री अमितशाहः अद्य जम्मूनगरं गत्वा प्रवर्तमानस्य उद्धारकार्याणां समीक्षां करिष्यति, तथा च सद्यः एव मेघस्फोटेन जलप्लावनेन च जातस्य क्षतेः आकलनं करिष्यति। सः कटरानगरस्य स्थितेः समीक्षां करिष्यति, यत्र श्रीमाता वैष्णोदेवी तीर्थमार्गे भूस्खलनेन नैके जनाः मृताः। जम्मूनगरं सम्प्राप्य श्रीशाहः राजभवनं गत्वा उच्चस्तरीयसमीक्षासभायाः अध्यक्षतां करिष्यति। जलाप्लवननिवारण उपायानां विषये चर्चां मूल्याङ्कनं च विधास्यति। गृहमन्त्रालयेन प्रचण्डवृष्ट्या जलाप्लावनेन मेघस्फोटेन भूस्खलनेन च जातेः क्षतेः मूल्याङ्कनं कर्तुं हिमाचलप्रदेश उत्तराखण्ड पंजाब जम्मूकश्मीर राज्याणां कृते अन्तर्मन्त्रालयीय केन्द्रीयदलानि निर्मितानि। एकस्मिन् वक्तव्ये मन्त्रालयेन उक्तं यत् गृहमन्त्रिणः अमितशाहस्य निर्देशानुसारं एतानि दलानि स्थित्याः मूल्याङ्कनं करिष्यन्ति, तथा च सम्बद्धराज्यप्रशासनैः कृतानां साहाय्योद्धारकार्याणां समीक्षापि करिष्यन्ति। भारत ऋतुविभागेन अद्य हिमाचलप्रदेशे उत्तराखण्डे च अतिवृष्टेः रक्तवर्णीया सञ्चेतना प्रसारिता अस्ति। ऋतुविभागेन पूर्वीय राजस्थान, हरियाणा, चण्डीगढ़, दिल्ली, जम्मूकश्मीर, लद्दाख, गिलगिट, बाल्टिस्तान, मुजफ्फराबाद, ओडिशा, पंजाब, उत्तर प्रदेशेषु अपि आगामी दिनद्वयं यावत् अत्यधिक वृष्टिः भविष्यति इति पूर्वानुमानं कृतमस्ति। छत्तीसगढ़, आंध्र प्रदेश, कर्नाटक, गुजरात, महाराष्ट्र, केरल, माहे, कोंकण, गोवा इत्येतेषु राज्येषु अस्य मासस्य तृतीय दिनांक पर्यन्तं प्रचंड वृष्टि भवितुं शक्नोति। बिहार राज्यस्य राजगीर नगरे एशिया कप पुरुष हॉकी प्रतियोगितायां गत सायं भारतेन जापान दलं 3-2 इति अंकांतरालेन पराजितम् इति वार्ताः।